शान्तिं शान्ति निशान्तं शान्तं शान्ता शिवं नमस्कृत्य स्तोतुः शान्ति निमित्तं मन्त्रपदैः शान्तये स्तोमि ओमिति निश्चितवचसि नमो नमो भगवते हृते पूजा शान्ति जिनाय जयवते यशस्विने स्वामिने दमिनाम् सकलातिशेषकमहासम्पत्ति समन्विताय शस्याय त्रैलोक्यपूजिताय च नमो नमः शान्तिदेवाय सर्वामरसुसमूह स्वामिकसम्पूजिताय नजिताय भुवनजनपालनोद्यततमाय सन्ततं नमस्तस्मै सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय दुष्टग्रहभूतपिशाच शाकिनीनां प्रमथनाय यस्येति नाम मन्त्रप्रधानवाक्योपयोगकृततोषा विजया कुरुते जनहितमिति च नुतां नमत तं शान्तिम् भवतु नमस्ते भगवति विजये सुजये परापरैरजिते अपराजिते जगत्यां जयतीति जयावहे भवति स्यापि च सङ्घस्य भद्रकल्याणमङ्गलं प्रददे साधूनां च सदा शिव सुतुष्टिपुष्टिप्रदे जियाः भव्यानां कृतसिद्धे निर्वृत्तिनिर्माणजननि सत्त्वानाम् अभयप्रदाननिरते नमोऽस्तु स्वस्ति प्रदे तुभ्यम् तानां जन्तूनां शुभावहे नित्यमुद्यते देवि सम्यक् दृष्टीनां धृति रतिमति बुद्धि प्रदानाय जिनशासननिरतानां शान्तिनतानां च जगति जनतानां श्रीसम्पत् कीर्ति यशो वर्धनि जय देवी विजयस्व। सलिला नल विष विषधर दुष्ट ग्रह राज रोग रण भयतः राक्षस रिपुगण मारि चौरेतिष्वा पदादिभ्यः अथ रक्ष रक्षसु शिवं कुरु कुरु शान्तिं च कुरु कुरु सदेति तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् भगवते गुणवते शिव शान्ति तुष्टि पुष्टि स्वस्तिह कुरु कुरु जनानाम् ओमेति नमो नमो ह्रां ह्रीं ह्रूं ह्यः यः क्षः ह्रीं फोट फोट स्वाहा एवं यन्नामाक्षरपुरःसरं संस्तुता जया देवि कुरुते शान्तिं नमतां नमो नमः शान्तये तस्मै इति पूर्वसुरिदर्शितमन्त्रपदविदर्भितहस्तवः शान्तेः सलिलादिभयविनाशि शान्त्यादिकरश्च भक्तिमताम् यश्चैनं पठति सदा शृणोति भावयति वा यथा योगम् स हि शान्तिपदं यायात्सुरीः श्रीमान् देवश्च उपसर्गः क्षयं यान्ति छिद्यन्ते विघ्नवल्लयः मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे सर्वमङ्गलमाङ्गल्यं सर्वकल्याणकारणम् प्रधानं सर्वधर्म जैनं जयति शासनम् जैनं जयति शासनम् जैनं जयति शासनम्